इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। राष्ट्रिय लोकतांत्रिक संयुत्या सर्वसम्मत्या प्रधानमन्त्री नरेन्द्र मोदी स्वीय नेता चितः। ह्यः नवदिल्ल्यां प्रधानमन्त्रिणः आवासे एनडीए इत्यस्यां नेतृणाम् उपवेशने एकः प्रस्तावः पारितः, यस्मिन् उल्लिखितः यत् भारतेन विगत दशवर्षेष् एनडीए इत्यस्य सर्वकारे श्रीमोदिनः नेतृत्वे च प्रत्येकस्मिन् क्षेत्रे सर्वतोन्मुखी विकासः दृष्टः। तत्र एतदपि उक्तं यत् देशस्य जनाः षड्दशकानन्तरं तृतीयवारं निरन्तरं बहुमतेन सशक्तं नेतृत्वं चितवन्तः। उपवेशने प्रधानमन्त्रिणं नरेन्द्रमोदिनं समेत्य भाजपाध्यक्षः जेपी नड्डा, राजनाथसिंहः, अमितशाहः च आस्ताम्। अपि च उपवेशनेऽस्मिन् तेलुगुदेशं पार्टी टीडीपी प्रमुखः एन चन्द्रबाबू नायडू, जनता दल युनाइटेड प्रमुखः एवं बिहारस्य मुख्यमंत्री नीतीश कुमारः, लोक जनशक्ति पार्टी रामविलास प्रमुखः चिराग पासवानः, अपि च एनडीए घटकेत्यस्य अन्य नेतारः सम्मिलिताः आसन्। इंडी संयुत्या नवदिल्ल्यां जाते उपवेशने केन्द्रे सर्वकार निर्माण विषये स्वरणनीति विषयम् उपरि चर्चा कृता। नवदिल्ल्यां कांग्रेस अध्यक्षस्य मल्लिकार्जुन खड़गे इत्यस्य आधिकारिक निवासस्थाने ह्यः एषा सभा अभवत्। उपवेशने कांग्रेस अध्यक्षः मल्लिकार्जुन खड़गे अवदत् यत् संयुतिः एषा सर्वेषां दलानां स्वागतं करोति, ये अस्माकं संविधानस्य प्रस्तावनायां निहितमूल्यानि प्रति स्वीय मौलिक प्रतिबद्धतां विनिमयीकुर्वन्ति। इंडी संयुत्याः उपवेशनानन्तरं वार्ताहरैः सह वार्तालापं कुर्वन् कांग्रेसाध्यक्षः मल्लिकार्जुन खड़गे अवदत् यत् अनया संयुत्या देशस्य वर्तमान राजनीतिक स्थितेः विषयम् आधृत्य चर्चा कृता। प्रधानमन्त्रिणः नरेन्द्रमोदिनः ह्यः राष्ट्रपतिभवने राष्ट्रपति द्रौपदी मुर्मू वर्यया सह मेलनं कृत्वा राष्ट्रिय केन्द्रीय मन्त्रिपरिषदा सह स्वीय त्यागपत्रं प्रदत्तवान्। राष्ट्रपतिः त्यागपत्रं स्वीकृत्य प्रधानमन्त्रिणः केन्द्रीय मन्त्रिपरिषदा च नूतन सर्वकारस्य निर्माणं यावत् पदे यथावदेव भवितुम् आग्रहं कृतवती। ओडिशायाः मुख्यमन्त्रिणा नवीन पटनायकेन ह्यः भुवनेश्वर स्थिते राजभवने राज्यपालाय रघुवर दासाय स्वीय त्यागपत्रं प्रदत्तम्। राज्ये सद्य एव समाप्ते विधानसभा निर्वाचने स्वपक्षस्य विजु जनता दलस्य पराजयानन्तरं तस्य त्यागपत्रमागतम्। ध्येयं वर्तते यत् श्रीपटनायकः ओडिशा राज्यस्य सर्वाधिक दीर्घकालं यावत् मुख्यमन्त्रीरूपेण अस्ति। ह्यः पञ्चवारं कार्यं कृतवान्, यो हि चतुर्विंशतिः वर्षाणि त्रयः मासाः च प्रसृतः। ओडिशा विधानसभायां भाजपेति दलेन सप्तचत्वारिंशदधिकैकशत आसनेष् अष्टसप्ततिः आसनानि विजितानि। कथिते मद्यनीतिप्रवञ्चनाप्रकरणे दिल्ल्याः मुख्यमन्त्रिणः अरविन्द केजरीवालस्य अल्पावधिक मुक्तिः याचिका ह्यः दिल्ली न्यायालयेन अस्वीकृतम्। राउस एवेन्यू न्यायालयस्य विशिष्ट न्यायाधीशः कावेरी बावेजा इत्यनया केजरीवालस्य याचिका चिकित्साकारणात् सप्तदिनानां कृते अल्पावधिक मुक्ति याचिका अस्वीकृता। फ्रेंच ओपन टेनिस क्रीडायां रोहन बोपन्ना मैथ्यू एबडेन इत्यनयोः भारत ऑस्ट्रेलिया युगलं प्रतिस्पर्धा उपान्त्यचक्रे सिमोन बोलेली एंड्रिया बावसोरी इत्यनयोः युगलेन सह भविष्यति। विंशति प्रतिविंशति विश्व चषक प्रतिस्पर्धायां भारतीय दलेन गतरात्रौ स्वीयाभियानस्य शुभारम्भः कृतः। न्यूयॉर्क नगरे भारत दलेन आयरलैंड दलं अष्टस्तोभैः पराजितम्। इति वार्ताः।